एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली जनतायाम् निराश विस्तारणस्य कार्यम् न कर्तुम् राजनीतिक दलानाम् नेतृन् कार्यकर्तृंश्च अनुरुणद्धि। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य भातृ संगठनस्य प्रवासी नेपाली एकता मञ्चस्य कार्यक्रमम् ह्य संगणकीय माध्यमेन सम्बोधयन् प्रधानमन्त्री ओली दलानाम् अल्पमत बहुमतयोर् विवादः आगामी निर्वाचनस्य परिणामेन समाधास्यते इत्यतः इदानीम् जनतायाम् निराश विस्तारणस्य कार्यम् न कर्तुम् अनुरुणत्। प्रधानमन्त्री ओली निराश जनता देशस्य विकासाय अग्रगमनाय च घातिका भवतीति तर्कयन् जनतायाम् आशा जागरणस्य कार्यम् कर्तुम् सर्वान् अन्वरुणत। प्रधानमन्त्री ओली सर्वकार प्रमुखस्य दलाध्यक्षस्य च रूपेण आत्मना नेपाली जनतायाम् आशा जागरण कार्यम् विधीयमानम् सदपि स्वस्यैव दलस्य नेतृभ्यः सहयोगम् प्राप्तुम् न शक्तम् इति अवोचत्। स्वदलस्य आभ्यन्तरेभ्यः कतिचित् नेतृभ्यः प्रतिनिधिसभायाः एतस्याः सभामुख सर्वकारेण उचित सहयोग समर्थनयोः प्राप्तेः अवस्थायाः अभावस्य देशे अस्थिरता सर्जनस्य संकटवर्धनस्य च कारणात् स्थिरतायै प्रतिनिधिसभां विघटय्य निर्वाचनं गन्तुम् निर्णीतम् इति प्रधानमन्त्रिणा ओलिना स्पष्टीकृतम्। प्रधानमन्त्री ओली सम्प्रति नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अभ्यन्तरे देशे च उद्भूताः विवाद समस्याः केवलम् एकः सामान्य प्रहारो वर्तते, शीघ्रं देशः नवीन गतिम् अवाप्स्यतीति अवोचत्। प्रधानमन्त्री ओली प्रतिनिधिसभाया विघटनस्य पश्चात् सत्तारूढ़ नेकपा दलम् विभक्तम् नास्ति, कतिचित् जनाः पृथक् भूताः, ये च प्रतिगमनस्य दयात्रायाम् संलग्नाः सन्तीति अभासत। प्रधानमन्त्री केपी शर्मा ओली वदति प्रत्येकं नागरिकेण सुखी भयरहितं च जीवनयापनं प्राप्तव्यं भवतीति हेतोः सर्वकारः समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षां पूरयति एव। नेपाल स्काउट संस्थया ह्यो बालवाटार वर्तिनी प्रधानमन्त्री निवासे आयोजितम् बालबालिकाभिः सह प्रधानमन्त्री इति कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री ओली निष्ठावतः विवेकशीलस्य जनसेवकस्य च क्षेत्रस्य रूपेण राजनीतिम् बोद्धुम् बालबालिकाः अन्वरुणत। बालबालिकायाः राजनीतेश्च सम्बन्ध्य पृष्टम् प्रश्नम् उत्तरयन् प्रधानमन्त्री ओली राजनीतौ विकृतायाम् सत्यम् एतस्य सन्मार्गे आननात्मक कार्यस्य नेतृत्वम् आत्मना विधास्यते इति समस्पष्टयत्। प्रधानमन्त्री ओली स्वार्थाय कार्यकर्तृणां संघर्षे योजिकायाः देशे अस्थिरतायाः आनयनात्मिकायाश्च प्रदूषित राजनीतेर्विरुद्धे आत्मना सन्नद्धेन भूयते इत्यभासत। संचार सूचना प्रविधि मन्त्री नेपाल सर्वकारस्य प्रवक्ता च पार्वत गुरूङ प्रतिनिधिसभायाः विघटनम् सदपि वर्तमान सर्वकारः वैधानिकोऽस्ति, सर्वकारेण नेपालस्य प्रचलित विधेः अनुसारेणैव विभिन्नाः निर्णयाः विधीयमानाः सन्तीति च स्पष्टीकरोति। मन्त्रिपरिषदा निर्णयान् सार्वजनिकर्तुम् ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्री गुरूङ वर्तमान सर्वकारे सर्वकारेण विहितेषु निर्णयेषु च सांविधानिक प्रश्नोत्थापन स्थानम् नास्तीति समस्पष्टयत। मन्त्री गुरूङ लोकतन्त्रस्य संसदीय व्यवस्थायाः नेपालस्य वर्तमान संविधानस्य च रक्षायै निर्वाचने गमनस्य विकल्पो नासीदिति स्पष्टीकुर्वन् निर्वाचने प्रवर्तनाय सर्वान् अन्वरुणत। अस्यैव पौषमासस्य दशमे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन विद्युत्तन्त्र सञ्जालस्य आधुनिकीकरण योजनायै ऐशैक विकास कोषागारात् आसन्न पञ्चकोटीनाम् षष्टेः लक्षाणाञ्च अमेरिकीय डलर मुद्राणाम् सौविध्यपूर्णाम् ऋण सहायताम् स्वीकर्तुम् निर्णीतम् अस्तीति सर्वकारस्य प्रवक्ता मन्त्री गुरूङ अज्ञापयत। उपवेशेन रसुवा धनुषा दैलेख सल्यान बारा बैतडी रूकुम पूर्व रूकुम पश्चिम रोल्पा सप्तरी कपिलवस्तु चेती अतिरिक्तेषु एकादश जनपदेषु बाल पोषण संरक्षणानुदान कार्यक्रमस्य विस्ताराय स्वीकृतिम् प्रदातुम् च निर्णीतम् वर्तते। एवमेव नेपालस्य सगरमाथा शिखरस्य उच्चतायाः मापनम् अष्टौ सहस्राणि अष्टौ शतम् दशमलव षडशीत्यधिकाष्ट चत्वारिंशत् मीटर मितम् अस्तीति सूचना नाम राजपत्रे प्रकाशयितुम् च निर्णीतम् वर्तते। उपवेशेन बेलायत राज्यात् बेलायत देशो भूत्वा वा नेपाले आगच्छताम् यात्रिणाम् आगमन निषेधन सम्बद्धम् कोविड 19 संकट व्यवस्थापन केन्द्र निर्देशक समितेः निर्णयम् अनुमोदितुम् च निर्णीतम् इति सर्वकारस्य प्रवक्ता मन्त्री गुरूङ पत्रकार सम्मेलने अज्ञापयत्। संघीय संसद उपरितरण सदनस्य राष्ट्रिय सभाया शीतकालिकाधिवेशनम् ह्य प्रारब्धमस्ति। उपवेशे सांसदैः इच्छु कृषकाणां समस्यां दीर्घकालिक रूपेण समाधातुं सर्वकारः ध्यानाकर्षितो वर्तते। उपवेशे सांसदा दीनानाथ शर्मा प्रतिनिधि सभायाः अवर्तमानस्य अवस्थायां राष्ट्रिय सभया जनसम्बद्धाः जनाभिरुचश्च विषयाः अग्रे वर्धापयिष्यन्ते इत्यवोचत्। सांसदः जितेन्द्र नारायण देवः प्रतिनिधि सभायाः विघटनस्य विषयः सर्वोच्च न्यायालये विचाराधीनोऽस्तीति भाषमाणः सर्वोच्च न्यायालयस्य निर्णयः नेपाली कांग्रेस दलेन आत्मसात करिष्यते इत्यवोचत्। उपवेशे गृहमन्त्री रामबहादुर थापा एतद् विक्रमादीयान् अतिज्वलनशील घातक रासायनिक पदार्थ नियमन सम्बद्धा देशम् नेपाल प्रहरी प्रदेश प्रहरी कार्य सञ्चालन सुपरिवेक्षण समन्वय प्रथम संशोधनाध्यादेशम् सामाजिक सुरक्षा प्रथम संशोधनाध्यादेशम् च प्रस्तुतवान्। उपवेशे स्वास्थ्य जनसंख्या मन्त्रिणा हृदय त्रिपाठिना एतद् विक्रमाब्दीय औषध सम्बद्धः तृतीय संशोधनाध्यादेशः प्रस्तुतः। विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठश्च एतद् विक्रमाब्दीयो यौन हिंसा विरुद्धस्य कतिचित् अधिनियमानां संशोधनाध्यादेशम् उद्दण्डापराध उद्दण्डापराध कार्यविधि सम्बद्धानां कतिचित् अधिनियमानां संशोधनाध्यादेशम् च प्रास्तौत। राष्ट्रियसभायाः अपरोपवेश अस्यैव पौषस्य त्रयोविंशे दिवसे दिवा एकवादने पुनर्वस्था। गृहमन्त्री रामबहादुर थापा भाषते प्रतिगमनकारी शक्त्या नेपाल कम्युनिष्ट पार्टी नेकपादलम् विभाजितम् अस्ति। नेकपादलस्य ललितपुर जनपद समित्या ह्य आयोजितायाम् ललितपुर महानगरीय स्तरीय वृहत कार्यकर्तृ मेलायाम् गृहमन्त्री थापा अवोचत् राष्ट्रिय अस्थिरतायाः सर्जनस्य अवस्था प्रतिगमनकारी शक्त्या एव श्रेष्ठास्ति। सभामुख अग्निप्रसाद सापकोटा संघीय संसद सचिवालये पञ्जीकारितस्य अविश्वास प्रस्तावस्य सन्दर्भे पूर्वमेव सचिवालयेन स्पष्टीकृतम् अस्तीति हेतोः अनावश्यक भ्रमोद्भावनस्य कोऽपि अर्थो नास्तीति भासते। अस्यैव पौषमासस्य पञ्चमे दिवसे नवत्या सांसदैः संघीय संसद सचिवालये पञ्जीकारितस्य अविश्वास प्रस्तावस्य सन्दर्भे आत्मानं च लक्ष्यीकृत्य टिप्पणी कृतम् इति कथयन् असौ अत्र अतिरिक्तं स्पष्टयितुं संसूचनं प्रकाशितमिति अवदत्। सभामुखस्य सापकोटाविदस्य संचार विज्ञेन श्रीधर न्यौपाने भिदेन प्रकाशिते संसूचने सभामुखं सम्बोध्य सचिवालय पञ्जीकरणाय आनीतस्य अविश्वास प्रस्तावस्य पञ्जीकरणार्थं लिखित निर्देशनं प्रदत्तमिति ज्ञापितं वर्तते। बागमती प्रदेशस्य मन्त्रिपरिषदः उपवेशेन प्रदेशसभायाः सप्तमाधिवेशनस्य आगामिनो माघमासस्य सप्तमे दिवसे आह्वानाय प्रदेशप्रमुखं विष्णुप्रसाद प्रसाई इत्यमुं परामृष्टुं निर्णीतं वर्तते। मुख्यमन्त्रिणा डोरमणि पौडेलस्य अध्यक्षतायां गतदिने उपविष्टेन उपवेशेन विषयेऽस्मिन् परामृष्टुं निर्णीतमिति बागमती प्रदेशसर्वकारस्य प्रवक्ता कैलाशप्रसाद ढुङ्गेलः अज्ञापयत्। इति समाचारः।